सुराणाम् आनन्द प्रबलनतया मण्डनतया न केन्दुज्योत्स्नाभिः विसृमर तमखण्डनतया पयोजश्रीत्वेष व्रतरततया त्वच्छरणयोः विलासः कामाक्षी प्रकटयति नैषा करदशाम् सितिं न कान्तीनां न खरजनुषां पादनलिनच्छवीनां शोणिं न तव जननि कामाक्षि नमने लभन्ते मन्दार ग्रथितनवबन्धुककुसुम स्रजां समीचीन्यं सुरपुरपुरन्ध्रि कचभराः स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां वहन् अब्जं चक्रं दरमपि च लेखात्मकतया श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमा त्रिधामकमक्षः पदनळिन नाम विजयते नकश्री सन्नद्ध स्तबकनिचित स्वैश्च किरणैः पिशङ्गै कामाक्षी प्रकटित लसत्पल्लवरुचिः सतां गम्य शङ्के सकलपलदाता सुरतरुः त्वदीयः पादोऽयं तुहिनगिरिराजन्य तनये वषट्कुर्वल्माञ्जीरज कलकलैः कर्मलहरी हविंषि प्रोदण्डं ज्वलति परमज्ञानदहने महीयान् कामाक्षि स्फुटमहसि ज्योहोति सुधिया मनोवेद्या मातः तव चरणयज्व गिरिसुते महामन्त्रं किञ्चिन् मणिकटकनादैर्मृदु जपन् क्षिपन् दिक्षु स्वच्छं नखरुचिमयं भास्मनरज नतानां कामाक्षि प्रकृतिपटुरुच्चाट्य ममता पिशाचीं पादोऽयं प्रकटयति ते मान्त्रिकदशा उदीते बोधेन्दौ तमसि नितरं चग्मुषि दशा दरिद्रां कामाक्षि प्रकटम् अनुरागं विदधति सितेनाश्चाद्याङ्गं न करुचिपटेनाङ्ग्रियुगली पुरन्द्रीते मातः स्वयम् अभिसरत्येव हृदयम् दिनारम्भसम्पन्नळिनविपिनानाम् अभिनव विकासो वसन्तः सुखविपिकलोकस्य नियतः प्रदोषकामाक्षि प्रकटपरम ज्ञानशशिनः चकास्ति त्वत्पाद स्मरणमहिमा शैलतनये धृतश्चायं नित्यं सरसिरुह मैत्री परिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् मुमुक्षुणमार्ग प्रथनपटुकामाक्षि पदवीं पदं ते पातङ्गीं परिकलयते पर्वतसुते शनैस्तीर्त्वा मोहाम्बुधिम् अथ समारोढु मनसः क्रमात् कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् लभन्ते निःश्रेणीम् इव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथन सीमन्तिनि जनाः।